आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने आयुः प्रज्ञाबलम् वीर्यम् तेजस्तेषां च जाय